इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। सर्वोच्च न्यायालयेन अद्य नागरिकता संशोधनाधिनियमस्य सीएए इत्यस्य कार्यान्वयनाय अवरोधनम् अस्वीकृतम्। भाजपायाः वरिष्ठ नेतृभिः नरेन्द्रमोदिना च अद्य राष्ट्रिय लोकतांत्रिक गठबंधनस्य प्रत्याशिनां समर्थने केरलस्य पलक्कड स्थले पथप्रदर्शनं विहितम्। जम्मूकश्मीरे संसदीय निर्वाचनाय सुरक्षा वर्धितास्ति। जम्मू विश्वविद्यालयस्य द्विदिवसीय युवमहोत्सवः गुंज चतुर्विंशत्यधिक द्विसहस्रतमः अद्य प्रभृति प्रारभ्यते। महाराष्ट्रस्य गढ़चिरौली जनपदस्य रेपनपल्ली अरण्येषु अद्य प्रातः सुरक्षाबलैः सह द्वन्द्वे चत्वारः नक्सलिनः मृताः। अपि च स्विस ओपन सुपर 300 बैडमिंटन प्रतियोगितायाः चतुर्विंशत्यधिक द्विसहस्रतमवर्षस्य संस्करणस्य आरम्भः अद्य स्विट्जरलैंड देशस्य वेशेल नगरे भविष्यति। अथ वार्ताः विस्तरेण। सर्वोच्च न्यायालयेन अद्य नागरिकता संशोधनाधिनियमस्य सीएए इत्यस्य कार्यान्वयनावरोधनम् अस्वीकृतम्। गतसप्ताहे अधिसूचिताधिनियमस्य समाह्वाने सप्तत्रिंशत्यधिक द्विशतं यावत् याचिकासु प्रतिक्रियां प्रदत्ता सर्वोच्च न्यायालयेन सर्वकारस्य सप्ताहत्रयम् अपि प्रदत्तम्। मुख्य न्यायाधीशः डी वाई चन्द्रचूडः, न्यायाधीशः जेवी परदीवाला, न्यायाधीशः मनोज मिश्रः च अस्य विषयस्य श्रवणं कृतवन्तः। याचिकाकर्तासु इंडियन यूनियन मुस्लिम लीगः, कांग्रेसस्य विपक्षिदलस्य नेता जयराम रमेशः, तृणमूल कांग्रेसदलस्य महुआ मोइत्रा च आसन्। अस्मिन् प्रकरणे अग्रिमः कार्याचरणम् अप्रैल मासस्य नवमे दिनांके निर्धारितमस्ति। भाजपायाः वरिष्ठ नेतृभिः नरेन्द्रमोदिना च अद्य राष्ट्रिय जनतांत्रिक गठबंधनस्य प्रत्याशिनां समर्थने केरलस्य पलक्कडस्थले पथप्रदर्शनं विहितम्। लोकसभा निर्वाचनस्य घोषणायाः अनन्तरं श्रीमोदिनः इदं प्रथमं पथप्रदर्शनमस्ति। अस्मिन् पथप्रदर्शने भारतीय जनता पार्टीति दलस्य केरलक्षेत्रस्य अध्यक्षेण के सुरेन्द्रन इत्यनेन एवं पलक्कड पोन्नानी संसदीय क्षेत्रेभ्यः एनडीए प्रत्याशिभिः अपि भागं स्वीकृतम्। पथप्रदर्शनानन्तरं श्रीमोदी तमिलनाडु राज्यस्य सलेमस्थले एकां जनसभाम् अपि सम्बोधितम्। तेनोदीरितं यत् पीएमके इत्यनेन सह सन्धिं कृत्वा एनडीए इत्यनेन नवोर्जा सम्प्राप्ता। जम्मूकश्मीरे गृहमन्त्रालयेन केन्द्रीय सशस्त्र आरक्षक बलानां नियुक्तिः करिष्यते। सहैव अप्रैल मासस्य एकोनविंशति दिनांकात् पञ्च चरणेषु प्रारभ्यमाणानां संसदीय निर्वाचनानां निर्बाध्य सञ्चालनार्थं प्रशासनेन विभिन्न विभागीयानां आरक्षक बलानां व्यापक संख्यायां नियोजनम् अपि विधास्यते। आकाशवाण्याः जम्मू संवाददाता एकस्मिन् प्रतिवेदने विज्ञापितं यत् सम्पूर्ण घाट्याम् एवं राजौरी पुंछ इत्यनयोः सीमावर्ती क्षेत्रेषु आतंकवाद गतिविधेः निराकरणार्थं सीएपीएफ दलस्य प्रबन्धनं भविष्यति। भारतस्य निर्वाचनायोगेन पूर्वमेव जम्मूकश्मीरे अर्धसैनिक बलानां पञ्चत्रिंशदुत्तर षट्शतं दलेभ्यः सहमति प्रकटितास्ति। एतस्मिन् षट्त्रिंशत् दलानि ईवीएम कक्षाणां मतदानकेन्द्राणां च सुरक्षार्थं स्थापयिष्यन्ते। प्रथमचरणे उधमपुर डोडा आसनेभ्यः अप्रैल मासस्य एकोनविंशतिः दिनांके, द्वितीयचरणे जम्मू रियासी लोकसभा आसनेभ्यः अप्रैल मासस्य षड्विंशति दिनांके, अनन्तनाग पुंछ राजौरी आसनेभ्यः मई मासस्य सप्तम दिनांके, सहैव चतुर्थ चरणे श्रीनगरे मई मासस्य त्रयोदश दिनांके मतदानं भविष्यति। मई मासस्य विंशे दिनांके बारामुला आसनेभ्यः मतदानं भविष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। जम्मूकश्मीरे यूनाम् आन्तरिक ध्वनिं रचनात्मकतां च प्रसारयितुं जम्मू विश्वविद्यालयेन अद्य प्रभृति द्विदिवसीय युवमहोत्सवस्य गूंज चतुर्विंशत्यधिक द्विसहस्रतमस्य आयोजनं विधीयते। आकाशवाण्याः संवाददाता एकस्मिन् प्रतिवेदने विज्ञापितं यत् अस्य महोत्सवस्य उद्देश्यः जम्मूकश्मीरस्य छात्राणाम् एकीकरणम् इत्यस्ति। सममेव सांस्कृतिक साहित्यिक क्रीडा सम्बद्ध गतिविधीनां माध्यमेन तेषाम् आन्तरिक ध्वनिं प्रसारयितुम् एकस्य मञ्चस्य निर्माणम् इत्यपि अस्ति। एतस्मिन् महोत्सवे छात्रेभ्यः शिक्षकेभ्यः विशेषज्ञेभ्यश्च नवीन परियोजनाः उपस्थापयितुं विशेषस्थानस्य सुविधा भविष्यति। एतदतिरिच्य कार्यक्रमस्यास्य मुख्याकर्षणं कॉलेज ऑन व्हील्स जम्मू एंड कश्मीर ज्ञानोदय एक्सप्रेस इत्येतत् भविष्यति। महाराष्ट्रस्य गढ़चिरौली जनपदस्य रेपनपल्ली अरण्येष् अद्य प्रातः सुरक्षाबलैः सह द्वन्द्वे चत्वारः नक्सलिनः मृताः। आरक्षिबलानुसारे आरक्षि अधीक्षकस्य यतीश देशमुखस्य नेतृत्वे विशिष्टाभियाने सुरक्षाबलानाम् एकस्य दलस्य अन्वेषणाभियानावधौ नक्सलभिः सह द्वन्द्वम् अभवत्। महाराष्ट्रसर्वकारेण नक्सलिषु षट्त्रिंशत्लक्षरूप्यकाणां मूल्यानां पुरस्कारं घोषितमासीत्। क्षेत्रेषु अन्वेषणाभियानं जायमानं वर्तते। अपहृते बल्गेरिया देशस्य पोते उद्धारकार्यं साफल्येन सम्पादनाय भारतीय नौसेनायाः आभारं प्रकटयता प्रधानमन्त्रिणा नरेन्द्रमोदिना बल्गेरिया देशस्य राष्ट्रपत्युः रुमेन रादेवस्य प्रशंसा विहिता। अद्य एकस्मिन् सामाजिक अन्तर्जाल माध्यमेन बल्गेरिया देशस्य राष्ट्रपत्युः सन्देशस्य उत्तरं प्रवदता श्रीमोदिना उक्तं यत् भारत हिन्द महासागर क्षेत्रयोः नौकायानस्य स्वतन्त्रता रक्षणाय सागरीय चौर्यं लुण्ठनम् आतंकवादं च निराकर्तुं भारतं प्रतिबद्धम् अस्ति। सः बल्गेरिया देशस्य सप्त नागरिकाणां सुरक्षित गृह प्रत्यावर्तने प्रसन्नतां प्रकटितवान्। बल्गेरिया देशस्य राष्ट्रपतिना अपहृतस्य एम वी रुएन इति पोतात् नागरिकान् समेत्य चालकदलस्य च रक्षणाय भारतीय नौसेनायाः कृते कृतज्ञता प्रकटिता। राष्ट्रिय महिला आयोगेन रेलवे सुरक्षाबलेन च मानव तस्कर प्रकरणानि निराकर्तुं नवदिल्ल्याम् एकस्मिन् सन्धिज्ञापने हस्ताक्षरं विहितम्। अवसरेऽस्मिन् राष्ट्रिय महिला आयोगस्य अध्यक्षा रेखा शर्मा इत्येषा प्रोक्तवती यत् रेलवे स्थानेष् नियुक्तैः सुरक्षाबलैः महिलाः बालकान् च विरुध्य आपराधिक गतिविधयः निराकर्तुं महत्वपूर्ण भूमिका अविष्क्रियते। तया कथितं यत् मानव तस्कर समबन्धानि 70% प्रकरणानि बालकैः महिलाभिश्च सम्बन्धितानि सन्ति। आरपीएफ इत्यस्य महानिदेशकः मनोज यादवः प्रोक्तवान् यत् अस्य सन्धिप्रपत्रस्य उद्देश्यस्तावत् महिलानां कृते सुरक्षितयात्रायाः अनुभवप्रदानम् इत्यस्ति। भारत ऋतुविज्ञानविभागेन अद्य ओडिशा छत्तीसगढ़ पश्चिमबंग झारखण्ड राज्येष् मध्यमतः अतिवृष्टिः पूर्वानुमानिता अस्ति। तत्र उक्तं यत् पूर्वमध्यस्य तत्समीपस्थस्य च प्रायद्वीपीय भारतस्य केषुचित् भागेष् गुरूवासरं यावत् हिमपातः विद्युत्द्योत्यनेन सहैव वृष्टेः सम्भावना विद्यते। स्विस ओपन सुपर 300 बैडमिंटन प्रतियोगितायाः चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य संस्करणस्य आरम्भः अद्य स्विट्जरलैण्ड देशस्य वेशेल नगरे भविष्यति। पुरुष एकल विभागे सप्तमस्थाने स्थितः भारतस्य लक्ष्यसेनः द्वात्रिंशत्तमे चक्रे मलेशिया देशस्य लियोंग जुनहाव इत्यस्य विरुद्धं स्वीयाभियानस्य आरम्भं करिष्यति। इति वार्ताः।